एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। आगामिनो मार्सिस मासस्य चतुर्थे दिवसे सम्पत्स्यमानाय प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचनाय मतपत्राणां मुद्रणं सम्पन्नं वर्तते। निर्वाचनायोगेन प्राप्त प्रथमस्थानस्य निर्वाचनात्मिकायाः निर्वाचनप्रणाल्याः कृते चतस्रः कोटयः समानुपातिक निर्वाचन प्रणाल्या कृते च चतस्र कोटयश्चेति कृत्वा अष्टौ कोटयः मतपत्राणि मुद्रितानि सन्ति। एतस्मै निर्वाचनाय मार्सिस मासस्य तृतीयं दिवसं यावत् प्राप्ताष्टादश वर्षाणां मतदातृणां संख्या कोटिः उनाशीतिर्लक्षाणि अष्टाशीतिः सहस्राणि सप्तत्यधिक पञ्चशतं च वर्तते। प्राप्त प्रथमस्थानस्य निर्वाचनात्मिकायाः निर्वाचन प्रणाल्याः अन्तर्गतं प्रत्येकं निर्वाचन क्षेत्राय मतपत्राणां परिवहनं सततं जायमानं वर्तते। आयोगेन समानुपातिक निर्वाचन प्रणाल्याः अन्तर्गतानां मतपत्राणां परिवहनं सम्पन्नमिति ज्ञापितमस्ति। निर्वाचनायोगेन मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभायाः प्रदेशसभानां च निर्वाचनस्य पर्यवेक्षणाय त्रिचत्वारिंशते राष्ट्रियाभ्यः चतस्रिभ्यः अन्तर्राष्ट्रियाभ्यश्च संस्थाभ्यः अनुमतिः प्रदत्ता वर्तते। आयोगेन कतिपय राष्ट्राणि अनिरुद्ध्य एव पर्यवेक्षणाय आकारितानि सन्ति। एतासां संस्थानां पर्यवेक्षकैः सह मतदानस्य दिवसे मित्रराष्ट्राणाम् आमन्त्रितैः विशिष्टातिथिभिः नेपालस्थितैः कूटनीतिक नियोगैश्च अनुगमनं विधास्यते। आयोगेन आमन्त्रिताः जनाः मतदानस्य दिने अन्ये पर्यवेक्षकाश्च पञ्चदश दिनेभ्यः पूर्वकालतः एव पर्यवेक्षणं करिष्यन्तीति आयोगस्य प्रवक्ता शालिग्राम शर्मा पौडेलः अज्ञापयत्। पर्यवेक्षकाः स्वस्य मतदातृनामावलीयुते स्थाने पर्यवेक्षणानुमतिं न प्राप्स्यन्ति। सर्वकारीयनिकायेषु कार्यरतैः प्राध्यापकैः शिक्षकैः कर्मचारिभिः पदाधिकारिभिश्च पर्यवेक्षणस्य निषेधन कारिणी व्यवस्था वर्तते। उपराष्ट्रपतिः नन्दबहादुर पुन आगामिनो मार्सिस मासस्य चतुर्थ दिवसाय निर्धारितं प्रतिनिधिसभायाः प्रदेशसभानां च निर्वाचनं निष्पक्ष स्वतन्त्र भयरहित रूपेण सम्पत्स्यते इति विश्वासं व्यनक्ति। निर्वाचनस्य पूर्वकार्यस्य विषये ज्ञापनार्थं ह्यः उपराष्ट्रभवनं प्राप्तैः प्रमुख निर्वाचनायुक्तेन दिनेश कुमार थपलिया विदेन सह निर्वाचनायोगस्य अन्यैः पदाधिकारिभिः सह ब्रुवन् उपराष्ट्रपतिः पुन निर्वाचने अधिकतम मतदातृणां सहभागितायाः वातावरणं निर्मातुं बलं प्रादात्। प्रधानमन्त्री शेरवाल देउवा भाषते पश्चिम सेती जलविद्युत परियोजना सञ्चालयिष्यते। डडेलधुरा जनपदस्य गन्यापधुरास्थाने ह्य आयोजितां नैर्वाचनिक सभां सम्बोधयन् प्रधानमन्त्री देउवा अवोचत् सुदूर पश्चिम क्षेत्रम् आर्थिक रूपेण समुन्नतं विधातुं पश्चिम सेती जल विद्युत आयोजना सुचारू विधास्यते। असौ अवदत् पश्चिम सेती न केवलं सुदूर पश्चिमस्य एव अपितु राष्ट्रस्य अर्थतन्त्रोन्नयन कारिणी महत्वपूर्णा आयोजना वर्तते इत्यतः एतस्याः निर्माणे विपुल मात्रायां वृत्त्यवसरः स्रक्ष्यते। प्रधानमन्त्रिणा देउवाभिदेन भाषितं लिम्पियाधुरा कालापानी लिपुलेक भूभागान् प्रत्यावर्तयितुं भारतेन सह भूराजनीतिक कूटनीतिक प्रयत्नः विद्यमानो वर्तते। असौ अवाचत् भारत चीन देशाभ्यां सह सीमा विवादस्य सन्दर्भे सर्वकारः कूटनीतिक प्रयत्नं विधास्यति वार्ताया एव समस्यायाः समाधानम् अन्वेष्यते च। प्रधानमन्त्री देउवा वारद्वयं संसदः भञ्जकस्य पूर्ववर्तिनः सर्वकारस्य कार्यम् आलोचयन् अतर्कयत् संसदः सर्वकारस्य च स्थायित्वाय एव गठबन्धनं विहितमस्ति। डडेलधुरा जनपदस्य बेलापुर ग्रामपालिकायाम् आयोजितायाम् नैर्वाचनिक सभायाम् प्रधानमन्त्री देउवा कथयत् डडेलधुरा जनपदे चिकित्सा शिक्षण महाविद्यालयः शीघ्रं सञ्चालयिष्यते। प्रधानमन्त्री देउवा प्रावोचत् सुदूरपश्चिमस्य सप्तपर्वतीय जनपदान् केन्द्रे निधाय डडेलधुरा जनपदे चिकित्सा शिक्षण महाविद्यालयः सञ्चाल्यमानो वर्तते। प्रधानमन्त्री देउवा डडेलधुरा जनपदस्य विभिन्नेषु पर्यटकीय स्थलेषु मार्ग सञ्चालनेन सह संयोजित सत्सु पर्याप्ताः पर्यटकाः प्रवेक्षन्ति एवं स्थानीयस्तरेषु उत्पादितानां विभिन्नानां वस्तूनां निर्यातेन आयाजनस्य मार्गः अनावृतो भविष्यतीति च प्रत्यपादयत्। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली भाषते देशस्य एक इंच परिमितापि भूमि अतिक्रान्तुम् न दीयते। दार्चुला जनपदे ह्य आयोजिताम् नैर्वाचनिकीम् सभाम् सम्बोधयन् अध्यक्ष ओली अवोचत दार्चुला जनपदे अतिक्रान्ता नेपाली भूमि प्रत्यावर्तिष्यते। असौ अभासत पश्चवर्तिनाम् क्षेत्राणाम् विकासाय नेकपा एमाले दलम् सदैव जनतया सहैव वर्तते। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड गदति आगामिनो मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानेन निर्वाचनेन राष्ट्रे अग्रगमन प्रतिगमनयोर्मध्ये जायमानस्य संघर्षस्य निर्णयो विधास्यते। गोर्खा नगरपालिकायाः चतुर्दश वडा क्षेत्रस्य याङ्कोट स्थाने ह्य आयोजितायाम् वाम लोकतान्त्रिक गठबन्धनस्य संयुक्त नैर्वाचनिक्यां सभायाम् असौ अवोचत निर्वाचनेन पश्चगामिनी शक्ति पराजेतव्या। अध्यक्ष प्रचण्ड संविधानस्य निर्माणस्य पश्चात् देशे स्थायित्वम् रोद्धुम् कतिचित् गणतन्त्रस्य विरोधिनाम् जनानाम् संविधानस्य विरोधिषु गतिविधिषु संलग्नतायाः कारणेन एतरोद्धुम् वामलोकतान्त्रिक गठबन्धनम् निर्मितम् इति स्पष्टीकृतवान्। संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की तर्कयति वामलोकतान्त्रिक गठबन्धनम् व्यवस्थायाः सुदृढीकरणाय निर्मितमस्ति। सुनसरी जनपदस्य रामधुनी नगरपालिकायाः चतुर्थवडा क्षेत्रवर्तिनी लालपुरे ह्य आयोजितायाम् सभायाम् असौ संविधानस्य रक्षायै लोकतन्त्रस्य सबलीकरणाय च गठबन्धनम् आवश्यकम् अभूत् इति समस्पष्टयत। संचार मन्त्री कार्की संविधानम् जीवितम् प्राभिलेखनम् अस्ति यस्य समयानुकूलम् संशोधनम् सम्भवतीति चर्चयन् आगामिषु दशसु वर्षेषु नेपालः दक्षिणैशिया क्षेत्रस्य धनी राष्ट्रम् भविष्यतीति न्यश्चिनोत्। राष्ट्रपतिः विद्यादेवी भण्डारी निगदति मुस्ताङ जनपदस्य प्रसिद्धम् धार्मिक क्षेत्रम् मुक्तिनाथ मन्दिरम् विश्वस्य हिन्दू धर्मावलम्बीनाम् बौद्ध मार्गीणाम् च आस्थाया न्यासरूपेण स्थितम् वर्तते। ह्यः मुक्तिनाथ मन्दिरस्य परिसरे निर्मितायाः भगवतः गौतम बुद्धस्य प्रतिमायाः अनावरणस्य भगवतः विष्णोः प्रतिमायाः शिलान्यासस्य च पश्चात् राष्ट्रपतिः भण्डारी अगदत् मुक्तिनाथ क्षेत्रम् नेपालस्यैव विशिष्टम् धार्मिक स्थलम् सांस्कृतिक सम्पत् वर्तते। राष्ट्रपतिः भण्डारी अनेन कार्येण हिन्दूनाम् बौद्धानाम् च संयुक्तास्थायाः केन्द्रस्य रूपेण स्थितस्य मुक्तिनाथक्षेत्रस्य धार्मिकम् पर्यटकीयम् च महत्वम् इतोऽपि वर्धिष्यते इति विश्वासम् व्यक्तवती। राष्ट्रपतिना भण्डारिणा ह्य प्रातः मुक्तिनाथ मन्दिरे विशेष पूजाराधने विहिते आस्ताम्। राष्ट्रपतिना भण्डारिणा मन्दिरस्य परिसरे स्थितानाम् अष्टोत्तरशतस्य जलधाराणाम् परिक्रमया सह मन्दिरे विशेषेण पूजाराधने बीते इति मुस्ताङ प्रमुख जनपदाधिकारी नेत्र प्रसाद शर्मा अज्ञापयत। आगामिनो मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानाय निर्वाचनाय अस्थायी मतदातृणाम् अन्तिम सूची प्रकाशयिष्यते। निर्वाचन आयोगेन स्वस्य निर्वाचन क्षेत्रम् गन्तुम् असमर्थानाम् जनानाम् निर्वाचने संलग्नानाम् सर्वकारीय कर्मचारिणाम् वृद्धाश्रमेषु निवसताम् नागरिकाणाम् कारावासीनाम् सुरक्षाकर्मिणाम् च कृते समानुपातिक प्रणाल्याः पक्षे मतदानावसर प्रदानार्थम् अस्थायी मतदातृणाम् व्यवस्था विहितास्ति। ओसीएचए नाम्ना संयुक्त राष्ट्रसंघीय मानवीय विषय समन्वय कार्यालयेन श्रीलंकायाम् आर्थिक संकटः इतोऽपि वर्धितुम् शक्नोतीति प्रत्यादिशता न्यूनतोऽपि 57 लक्षेभ्यो जनेभ्यः मानवीय सहायतायाः आवश्यकतास्तीति ज्ञापितम् वर्तते। इति समाचारः।